इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झा। अथ वार्ताः। विदेश मन्त्रालयेन उक्तं यत् भारतामेरिका देशयोः मध्ये सहभागिता बहुपक्षीया विशिष्टा च अस्ति। गतवासरे नवदिल्ल्यां वार्ताहरान् सम्बोधयन् विदेशमन्त्रालयस्य प्रवक्ता रणधीर जायसवालः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी निर्वाचित राष्ट्रपतिना डोनाल्ड ट्रम्पेन सह संवादं कृतवान्। संवादावसरे प्रधानमन्त्री उक्तवान् यत् भारतम् अमेरिकया सह व्यापक वैश्विकीं सामरिकीं च सहभागितां भूयः अपि सुदृढं कर्तुम् उत्सुकम् अस्ति। श्रीजायसवालः अवदत् यत् भारतम् अमेरिका च जनानां हितं शान्तिं सुरक्षां च सुनिश्चेतुं कार्यं करिष्यतः। अपरतः कनाडादेशस्य टोरंटो नगरे केषाञ्चन निर्धारित वाणिज्य दूतावास शिविराणां निरस्तीकरण प्रकरणे श्रीजायसवालः अवदत् यत् कनाडा सर्वकारेण पर्याप्त सुरक्षा विषयकम् आश्वासनं न कृतम्, अथ एव एतेषां शिविराणां निरसनं जातम्। केन्द्रीयः गृहमन्त्री अमितशाहः उक्तवान् यत् आतंकवादस्य आतंकवादिनां च पारिस्थितिकी तन्त्रं विरुध्य सर्वकारः शीघ्रं एव राष्ट्रियातंकवादरोधि नीतिं प्रस्तोष्यति। नवदिल्ल्यां गतवासरे NIA इति राष्ट्रियान्वीक्षणाभिकरणेन आयोजितस्य द्विदिवसीयस्य आतंकवादरोधि सम्मेलनस्य उद्घाटनं कुर्वन् श्रीशाहः अवदत् यत् विगतेषु दशवर्षेषु प्रधानमन्त्रिणः नरेन्द्रमोदिनः कार्यभारग्रहणानन्तरम् आतंकवादं विरुध्य शक्तः संकल्पः सर्वकारेण कृतः। श्रीशाहः अवदत् यत् विगतेषु दशसु वर्षेषु आतंकवादं विरुध्य कार्याचरणाय देशे एकः शक्तः पारिस्थितिकीतन्त्रः विकसितः। सः अवदत् यत् 2000-तमवर्षतः 2013-तमवर्षाणां कालखण्डस्य अपेक्षया 2014-तः 2021-तमवर्षपर्यन्तम् आतंकवादिघटनासु 70% न्यूनता आकलितास्ति। केन्द्रीयः गृहमन्त्री अवदत् यत् आतंकवादिनाम् आक्रमणानि तेषां षड्यन्त्रं च सीमारहिततया अदृश्यरूपेण च देशं दुष्प्रभावयति। सः यूनाम् अधिकारिणां कृते विशेष प्रशिक्षणस्य आवश्यकतायां बलं दत्तम्। सर्वोच्चन्यायालयेन ह्यः निर्णयः कृतः यत् सर्वकारीय कार्येषु नियुक्तिनियमाः तावत्पर्यन्तं न परिवर्तितुं शक्यते यावत्पर्यन्तं किमपि निर्धारणं न भवति। मुख्यन्यायाधीशः DY चन्द्रचूडस्य नेतृत्वे पञ्चन्यायाधीशपीठस्य मतानुसारि एकदा नियुक्तिप्रक्रियायाः आदौ पूर्वं निर्धारिताः क्रीडायाः नियमाः मध्ये परिवर्तितुं न शक्यन्ते। न्यायालयेन उक्तं यत् चयननियमाः संविधानस्य 14 संख्याकस्य अनुच्छेदस्य अनुरूपाः एव भवेयुः। यात्रिणां सुविधार्थं भारतीय रेलविभागः अद्य आरभ्य 64-100 विशिष्ट रेलयानानि चालयिष्यति। यात्रिणः उत्सवे भागं भजित्वा पुनः गन्तव्यस्थानं प्रत्यागमिष्यन्ति। भारतीय रेलविभागस्य अनुसारि विगत 36 दिनेषु प्रायः 4500 रेलयानेषु 65 लक्षमिताः यात्रिणः गमनागमनं कृतवन्तः। रेलविभागेन अस्य मासस्य 4 दिनांके एकस्मिन् एव दिने 1,00,000+ यात्रिणां गमनागमनस्य कीर्तिमानं रचितम्। अन्ते क्रीडावार्तासु। भारत दक्षिणाफ्रीकयोः 20-प्रति20 क्रिकेट स्पर्धा श्रृंखलायाः प्रथमं द्वन्द्वम् अद्य रात्रौ 8:30 डर्बने आयोजयिष्यते। स्पर्धाचतुष्टयात्मिकायाः अस्याः श्रृंखलायाः अन्याः स्पर्धाः अस्य मासस्य 10, 13, 15 च दिनांकेषु आयोजयिष्यन्ते इति वार्ताः।